एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण दीर्घकालात् पिदानावस्थायाम् स्थिता हेटौडा वस्त्रोद्योगः पुनः सञ्चालितो वर्तते। उद्योग सञ्चालनस्य दायित्वम् प्राप्तवत्या नेपाली सेनया सम्प्रति 10 तन्तुताणाः परीक्षणस्य रूपेण सञ्चालिताः वर्तन्ते। अत्रान्तरे प्रधानमन्त्रिणा बालेन्द्र शाहेन कतिपयोद्योगेभ्य संस्थानेभ्यश्च आशाया परिणामस्य दर्शनम् प्रारब्धमस्तीति उक्तम् अस्ति। प्रधानमन्त्रिणा शाहेन सामाजिक सञ्जालस्य माध्यमेन ह्यो नेपालौषध लिमिटेड संस्थानम् हेटौडा वस्त्रोद्योग नेपाल वायु सेवा निगम दुग्ध विकास संस्थानम् सिंहदरबार वैद्यशाला चेती संस्थानेषु विहितेन सुधारस्य प्रयासेन रुग्ण राष्ट्रियोद्योगानाम् संस्थानानाम् च पुनरुत्थानस्य सम्भवः दृष्टोस्तीति उल्लिखितम् वर्तते। सञ्जाले प्रधानमन्त्री शाह स्वच्छचिन्तनेन कर्तव्यम् प्रति दायित्ववायिनः भूत्वा नैरन्तर्येण सहजीकरणम् उत्प्रेरणा समन्वयश्चेति विहितेषु सत्सु समाभयपूर्णावस्थायामपि सुधारस्य नूतनद्वारः उद्घाटितो भवतीति उल्लिखितवान् वर्तते। पूर्वाधार विकास मन्त्री सुनिल लम्सालः आगामी दिनेषु सालझण्डी सन्धिखर्क ढोरपाटन मार्गायोजनाया निर्माणेन गति प्राप्स्यते इति विश्वासं व्यनक्ति। सालझण्डी सन्धिखर्क ढोरपाटन मार्गायोजनाया स्थलगतानुगमनस्य क्रमे अर्घाखाँची जनपदस्य सन्धिखर्क स्थाने ह्य संचारकर्मिभिः सह भाषमाणः मन्त्री लम्सालः मार्ग निर्माणस्य कार्याय गतिं प्रदातुं सर्वकारः गभीरेण अग्रे वर्धितोऽस्तीति असूचयत्। मन्त्री लम्सालः कृष्णवज्रीकरणाय अवशिष्टेषु मार्गखण्डेषु वर्तमानार्थिक वर्षस्य अभ्यन्तरे एव निर्माणानुबन्धन प्रक्रियाया अग्रेवर्धनाय पूर्वकार्यम् विधीयमानमस्तीति सूचयन् आवश्यक प्रक्रियाम् प्रपूर्य अवशिष्ट मार्गखण्डस्य निर्माणमपि अग्रेवर्धते इति अज्ञापयत्। उच्चैः शिक्षायाः गुणस्तरस्य अभिवृद्धये विधिगतेन च सुधारेण सहैव विश्वविद्यालयेषु प्रवेशन विकास पदोन्नति प्रणालीनाम् पारदर्शी समावेशी परिणाममुख सम्पादनस्य निष्कर्षेण सह द्विदिवसात्मक नीतिगत कार्यशाला ह्य सम्पन्ना वर्तते। शिक्षा खेलकूद मन्त्रालयस्य आयोजनायाम् सम्भूतया कार्यशालया योग्य जनशक्तेः विश्वविद्यालयेषु प्रवेशनम् विश्वविद्यालयानाम् सुधारस्य महत्वपूर्ण पूर्वाधारो भवतीति निष्कर्षः प्रकाशितो वर्तते। कार्यशालायाः समापनावसरे पूर्वेद्यो शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः विश्वविद्यालयेषु समुचिताभ्यासानाम् आदान प्रदानम् आवश्यकमस्तीति प्रावोचत्। नेपाली कांग्रेस दलस्य सभापतिः गगन थापा कथयति आत्मानम् आदर्शम् च संरक्ष्य दल संगठनम् ऐकबद्धम् विधाय अग्रे वर्धिष्यते। दिवंगत नेतुः श्यामबहादुर कार्किणः एकोनविंश स्मृति दिवसस्य अवसरे ह्य भक्तपुरे आयोजितम् कार्यक्रमम् सम्बोधयन् सभापति थापा दलाभ्यन्तरे विद्यमानायाम् असहमतौ सहमतिम् धृत्वा अग्रे वर्धिष्यते इति अगदत्। अद्यतः प्रारभमाणेन केन्द्रीय कार्यसमितेः उपवेशेन एकताया सन्दर्भे आवश्यकः निर्णयो विधास्यते इति असूचयत्। सेवायै नागरिकाणाम् अधिकाराणाम् संरक्षणाय च राजनीतिः कर्तव्येति बलम् प्रददत् सभापति थापा कदाचित् सत्तातः बहिस्थित्वापि सेवा विधातव्येति बलम् दत्तवान्। नेपाली कांग्रेस दलस्य महामन्त्री प्रदीप पौडेलः दलस्य पञ्चदशम् महाधिवेशनम् निर्धारित समय एव भविष्यतीति उक्तवान् वर्तते। नेपाली कांग्रेस दलस्य काष्ठमण्डप महानगरपालिकायाः षड्विंशवडा कार्यसमित्या ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे महामन्त्री पौडेलः आगामिनः आश्विन मासस्य 16 दिवसात् एकोनविंशम् दिवसम् यावत् काष्ठमण्डपे पञ्चदश महाधिवेशनस्य आयोजनायै निर्णीतमस्तीत्यतः निर्धारित समय एव महाधिवेशनम् भविष्यतीति समाश्वासयत्। सर्वकारेण नेपाल प्रज्ञा प्रतिष्ठाने ललित कला प्रज्ञा प्रतिष्ठाने नेपाल संगीत नाट्य प्रज्ञा प्रतिष्ठाने च पदाधिकारिणो नियुक्ताः वर्तन्ते। एतेषु प्रतिष्ठानेषु रिक्तपदाधिकारिणाम् नियुक्तये संघटितानाम् पृथक् पृथक् परामर्श समितीनाम् परामर्शनस्याधारेण प्रधानमन्त्रिणा बालेन्द्र सायेन एतेषु प्रतिष्ठानेषु पदाधिकारिणो नियुक्ताः सन्तीति संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन ज्ञापितम् वर्तते। तत्र नेपाल प्रज्ञा प्रतिष्ठानस्य कुलपतिपदे कुमार नगरकोटी, उपकुलपतिपदे अविनाश श्रेष्ठ, सदस्य सचिव पदे रोशन शेरचन्द च नियुक्ताः वर्तन्ते। एवमेव ललितकला प्रज्ञा प्रतिष्ठानस्य कुलपतिपदे इरिणा ताम्रकार, उपकुलपतिपदे चन्द्र श्याम डंगोल, सदस्य सचिव पदे कैलाश कुमार श्रेष्ठश्च नियुक्ताः वर्तन्ते। नेपाल संगीत नाट्य प्रज्ञा प्रतिष्ठानस्य कुलपतिपदे ब्रजेश खनालः, उपकुलपतिपदे झुमा बनेम, सदस्य सचिव पदे भूपेन्द्र सिंह राय माझी च नियुक्ताः सन्ति। कर्णाली जनपदस्य कालीकोट कर्णाली प्रदेशस्य कालीकोट जनपदस्य पलाता ग्रामपालिकायाः थिर्पु कालीकोट पलाता चिकित्सालये चिकित्सकेषु स्वास्थ्य परिचारिकासु च प्रहारकारकाः त्रयो जनाः निगृहीताः वर्तन्ते। निगृहीतेषु पलाता ग्रामपालिकायाः नवमवडा क्षेत्रस्य कालीकोट थिर्पु स्थानस्य पञ्चत्रिंशद् वर्षीय सुशील बम, द्वात्रिंशद् वर्षीय मैना बम, त्रिंशद् वर्षीय तपेन्द्र बम च सन्तीति। कालीकोट जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षक हिमबहादुर खत्री असूचयत्। एतस्य अनुसारेण सुशीलेन मैना बमित्यनया च परह्यः शुक्रवासरे चिकित्साधिकृते डाक्टर अली हैदर रैन इत्यस्मिन् स्वास्थ्य परिचारिकायां शान्तागिरी इत्यस्याञ्च ताडनं दुर्व्यवहारश्च विहितौ आस्ताम्। मेची राजमार्गस्य अन्तर्गत इलाम राजदुवाली मार्गखण्ड एकमासाद् अवरुद्धो वर्तते। गत आषाढमासस्य त्रयोविंशे दिवसे इलाम नगरपालिकायाः नवमवडा क्षेत्रस्य इलाम राजदुवाली खण्डे भूस्खलनस्य पश्चात् अवरुद्धः मार्ग अधुनापि सञ्चालितो नास्ति। इति समाचाराः।